सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनामधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः।
नाव अत्र नाम वदति खलु तेजस्विनाव न तु नाम तेजस्विनावधीतमस्तु। अस्तु तर्हि गतवर्गे वयं पञ्चमः पाठः समापितवन्तः खलु इदानीं षष्ठः पाठः षष्ठः पाठः तर्हि गतवर्गे प्रथमविभक्ति तथा द्वितीयविभक्तिपर्यन्तम् अभ्यासम् अभवत् अलिख्या स्मरति खलु वयं प्रश्नार्थे श्रूयते खलु अलिख्या
आम्
आम् आम् कः कौ के कं कौ कान् पर्यन्तं कृतवन्तः खलु पुंलिङ्गे अनन्तरं स्त्रीलिङ्गे का के काः कां के काः नपुंसकलिङ्गे किं के कानि पुनः किं के कानि एतावत्पर्यन्तं कृतवन्तः। अत्र तृतीय यत् नारङ्गवर्णीय दृश्यते खलु आरेञ्ज् नारङ्गीयवर्णीयपङ्क्ति यद्दृश्यते तदस्ति तृतीया विभक्ति केन काभ्यां कैः। तर्हि एकवारं केवलं पठामः पठसि वा केवलम् उच्चारणं कुर्मः अलिख्या पठ पुल्लिङ्ग पुंलिङ्गः
पुंलिङ्गः
कः कौ के
कः कौ के काम
कम काम न कम कौ कान
कम कौ कान
केन काभ्यां कैः
केन काभ्यां कैः
स्त्रीलिङ्गे किमस्ति का के काः
का के काः
काम के काः
काम के काः
तृतीया विभक्ति कया काभ्यां काभिः
कया काभ्यां कामिः
भ भ महाप्राण प फ ब भ महाप्राण काभ्यां
काभ्यां
काभिः
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 आम् नपुंसकलिङ्गे प्रथमाविभक्ति किं के कानि वदतु
किं के कानि
पुनः द्वितीयाविभक्ति
किं के कानि
तृतीया केन काभ्यां कैः
केन काभ्यां कैः।
तर्हि अत्र पश्यतु पुंलिङ्गे तथा नपुंसकलिङ्गे समानेव अस्ति खलु केन काभ्यां कैः केन काभ्यां कैः परन्तु स्त्रीलिङ्गे कया काभ्यां काभिः
इदानीं
काभिः
काभिः
इदानीं सर्वं प्रयुज्य तृतीयाविभक्ति प्रयुज्य कथं वाक्यानि भवन्ति तत् पश्यामः। एकवारम् इतोपि एकं करोति इति क्रियापदं पश्येम तस्य पठनं करोति वा अयं करोति प्रथमपुरुषे एकवचनं किमस्ति अयं करोति पठतु
अयं करोति इमौ
पुरुतः
इमौ कुरुतः इमे
कुर्वन्ति
कुर्वन्ति
मध्यम पुरुषे त्वं करोषि
त्वं करोषि
युवां कुरुतः
युवां कुरुतः
यूयं कुरुथ
यूयं कुरुथ
यू दीर्घ अस्ति खलु द्विमात्र काल आवश्यकं खलु वन् क्लाप् टु क्लाप्स् आवश्यकं खलु यूयं कुरुथ आम् पुनः एकवारं वद यूयं कुरुथ
यूयं कुरुथ
तर्हि त्वम् इत्युक्ते कः यू आर् डूयिङ्ग् दिस् त्वं कार्यं करोषि इदानीं त्वं पठसि खलु अनन्तरं युवां टु यु टु आर् रीडिङ्ग् युवां पठनं कुरुथः यूयं कुरुथ यू आल् इन् देट् यू ऐ एम् नाट् इन्क्लूडेड् यू आल् हू आर् इन् फ्रण्ट् आफ् मी यू आल् आर् डूयिङ्ग् सम् वर्क् यूयं कुरुथ इदानीम् उत्तम पुरुषे पठ अहं करोमि
अहं करोमि
आवां कुर्वः
आवां
कुर्वः वयं कुर्मः
वयं कुर्मः
सो वाट् इस् दिस् मध्यम उत्तमं पुरुष तस्य तत्र अहम् इत्युक्ते ओन्लि ऐ फस्ट् देन् आवाम् इत्युक्ते वि टु फार् एक्साम्पल् रैट् नौ आवां चर्चां कुर्वः खलु वि आर् डिस्कसिङ्ग् आवां कुर्वः आवां कुर्वः वयं कुर्मः वि आल् स्टूडेण्ट्स् आर् लर्निङ्ग् वयं पठनं कुर्मः वदतु वयं
वयं
पठनं कुर्मः
पठनं कुर्मः
आम् तर्हि ह्यद् त्वं युवां यूयं दीस् आर् द प्रथमविभक्तिरूपम् आफ् द युष्मत् शब्द एण्ड् अहम् आवां वयं दीस् आर् द प्रथमविभक्तिरूपम् आफ् द अस्मत् शब्द जस्ट् रिमेम्बर् देम् लेटर् आन् एस् वि मूव् आन् विल् गेट् मोर् टु नो अबौट् इट् ओके रैट् नौ जस्ट् नो दट् दिस् त्वं युवां यूयम् is our prathama vibhakti rupani of yushmat and aham avam vayam our prathama vibhakti rupani of asmat okay this is mentioned in your valadarsha pustakam ekavimshati tame pute pashya ekavimshati 21 in the notes can you see that
yes
there it is mentioned okay so that's what I discussed okay agre sarema this we have just done prashnarthe idanim vakyani prashnema so okay are you able to read na alikya these sentences okay I hope the astu tari aham pathami anupathatu ayam balah पठ
एक निमिष
अयं बालः
अयं बालः
हस्तेन
हस्तेन
चन्द्रम् आह्वयति
चन्द्रम्
न आह्वयति
आह्वयति
that hakar and vakar whenever it comes together some people say ahvayati and some say ahvayati parantu ahvayati astu ahvayati vadatu
what is given in the bal darshya pustakam vadatu ahvayati
ahvayati
ahvayati va say the verb first ahvayati ahvayati वकारयोग ह आह्वयति
आह्वयति
केन् यु सी दिस् नौ दिस् इस् रिटन् हियर् ऐ शो यु यु एबल् टु सी मै स्क्रीन् नौ न द बालदर्शपुस्तक ऐ एम् शो केन् यु सी दिस् हियर् आह्वयति इट्स् हकार वकारयोग हकार
रैट्
आह्वयति तर्हि तर्हि लेट् अस् लुक् एट् द वाक्यं फस्ट् लुक् एट् द चित्रं चित्रं पश्य अयं बालः दट् फैन् हस्तेन वित् हिस् हेण्ड् चन्द्रम् आह्वयति हि इस् कालिङ्ग् द मून् चन्द्रम् आह्वयति आह्वयति इत्युक्ते टु काल् तत्र अर्थमपि दत्तमस्ति पश्यतु आन् त्रयोविंशतिपुटे पेज् 23 त्रयोविंशतिपुटे आह्वयति सेकेण्ड् कालम् इट्स् अ calls what is the answer given there in English calls it is the meaning is calls he's calling tari ayam balah kam ahvayati prashna any answer ayam balah who is he calling kam
ayam balah
chandram
chandram ahvayati
चन्द्रम् आह्वयति. अस्तु, द नेक्स्ट् क्वशन्, अयं बालः केन चन्द्रम् आह्वयति? वित् वाट्? वाट् इस् द इन्स्ट्रुमेण्ट्? हौ इस् हि कालिङ्ग्? अयं बालः केन चन्द्रम् आह्वयति? वित् वाट्? वित् इस् हेण्ड्, रैट्? वाक्यं किम् आसीत्? अयं बालः हस्तेन चन्द्रम् आह्वयति वित् हिस् हेण्ड्. तर्हि अयं बालः केन चन्द्रम् आह्वयति? उत्तरम्?
अयं बाल अयं बालः
हस्तेन
हस्तेन हस्तेन
चन्द्रम्
चन्द्रम्
आह्वयति
आह्वयति.
सो कम् आह्वयति, हूम् इस् हि कालिङ्ग्? चन्द्रं. कम् चन्द्रम्. केन? हस्तेन, रैट्? केन? केन? हस्तेन. अग्रिमचित्रं पश्यामि. दिस् विल् कम् टु दिस् लेटर्. फस्ट् विल् सी मोर् चित्राणि. तर्हि अत्र you are able to see, you see, na? Alikya, you want me to make it bigger? Is it fine with this? Let's check. Okay. Is this better? But then some things have gone out. No, I think was the earlier better? Alikya?
Yes,
the earlier view was better?
This is better, ma'am.
Okay, okay, yeah. Sri Chitram Pasha. Ekah balah asti. Ayam balah shakatena gruham gachati. Kena gruham gachati? Say, ayam balah.
Ayam balah.
Shakatena.
Shakatena.
Gruham. गच्छति.
गृहं गच्छति.
सो ही इस् गोयिङ्ग् बै अ हार्स् कार्ट्. ओके, तर्हि प्रश्नः, अयं बालः केन गृहं गच्छति? शकटेन. वित् वाट् इस् हि गोयिङ्ग्? वाट् इस् द साधन? अयं बालः, वदतु.
अयं बालः अयं बालः
शकटेन
शकटेन
गृहं
गृहं गच्छति.
सेद प्रश्नः, इदानीं प्रश्नः पठतु. अयं बालः केन
अयं बालः केन गृहं गृहं गच्छति?
वेर् दिस् केन हेस् कम्? केन सी दिस्? केन? शकटेन. शकटं, शकटे, शकटानि. शकटं नपुंसकलिङ्गपदमस्ति. अस्तु, तर्हि नपुंसकलिङ्गस्य तृतीया विभक्ति एकवचनं. केन? शकटेन. ऐ एम् लुकिङ्ग् एट् दिस् वर्ड् नौ. केन? शकटेन. नौ अयं बालः गृहं गच्छति, खलु? अयं बालः शकटेन गृहं गच्छति. इतोपि वाक्यानि पठामः. अग्रिमवाक्यं, नौ इन्स्टेड् आफ् वन् पर्सन् देर् आर् टु पीपल् रैडिङ्ग् द सेम् कार्ड्. तर्हि किं भवेत् वाक्यम्? अयम् इमौ इमे, हलो. तर्हि इमौ नरौ पठतु. इमौ नरौ
इमौ नरौ
शकटेन गृहं गच्छतः.
शकटेन गृहं गच्छतः.
किमर्थं गच्छतः? किमर्थं गच्छतः? नरौ अतः गच्छतः. नरौ द्विवचनं, खलु? इफ् इट् इस् ओन्लि नरः, ओन्लि वन् नरः, देन् किं भवति? अयं नरः शकटेन गृहं
गच्छति,
खलु? परन्तु इदानीं नरः नरः इत्युक्ते मेन्. ओके, नरः नरौ नराः, वदतु. नरः
नरौ
नराः. तर्हि नौ टु आफ् देम्. सो नरौ इमौ नरौ शकटेन गृहं गच्छतः. पुनः वदतु वाक्यम्.
इमौ
नरौ
शकटेन गृहं गच्छतः.
प्रश्नः इदं प्रश्नः. इन् द क्वश्चन् यु टु आस्क् वित् वाट् वाट् इस् द साधन, वाट् इस् द माध्यम. तर्हि इमौ नरौ केन गृहं गच्छतः? सी द क्वश्चन्, प्रश्नं पठ.
इमौ नरौ गृहं गच्छतः.
सो उत्तरं जानासि वा? किम् उत्तरम्? इमौ नरौ शकटेन
गृहं गच्छतः.
अग्रिमचित्रम्. इमे जनाः शकटेन गृहं गच्छन्ति.
इमे जनाः शकटेन गृहं गच्छति.
गच्छन्ति बहुवचनम्.
गच्छन्ति.
अत्र पश्यतु, गच्छति, गच्छतः,
गच्छन्ति.
तर्हि जनः, पूर्वं जनः इति पदं दृष्टं खलु, अकारान्तपुल्लिङ्गशब्दः आसीत्. जनः जनौ वदतु. जनः जनौ जनः. सो इन् दिस् चित्र जनः, मेनि आफ् देम्. अतः जनः. अयम् इमौ पश्यतु अत्र. अयम् इमौ एण्ड् देन्
इमे.
तर्हि इमे जनाः शकटेन गृहं गच्छन्ति. इदानीं प्रश्नमपि करोतु.
इमे जनाः केन गृहं गच्छति?
गच्छन्ति. केन, वाट् इस् अ साधन, वित् वाट् इस् अ माध्यम. तर्हि शकटेन गृहं गच्छन्ति. अग्रिमचित्रम्. नौ अयं पुरुषः अस्ति खलु, सः स्वयं किमपि वदति. किं वदति सः? पठ. अहं शकटेन गृहं गच्छामि. वाट् इस् से? पठ.
अहं शकटेन गृहं गच्छामि.
अहं गच्छामि खलु. पश्यतु, अयं गच्छति, इमौ गच्छतः, इमे गच्छन्ति. फार् योर् सेल्फ्, अहं गच्छामि खलु. तर्हि अत्र अहं शकटेन गृहं गच्छामि. न, अयं बालः तं पश्यति. अयं बालः इमं पश्यति. अयं बालः इमं पश्यति. तर्हि बालः किं वदसि, वदति बालः किं वदति? त्वं शकटेन गृहं गच्छसि. से पठ. वट् इस् बालकसि? त्वं
शकटेन गृहं गच्छति.
गच्छति न, त्वं गच्छसि खलु. अत्र पश्य, त्वं किमस्ति? गच्छसि अस्ति खलु. त्वम् इत्युक्ते यु, त्वम् इत्युक्ते अत्र यु, त्वं गच्छसि. अतः अत्र त्वं शकटेन गृहं गच्छसि. हि सीङ्ग् हिम् गोयिङ्ग् रैट् एण्ड् देफो हि सीङ्ग् इट् इट्स् लट् लकार वर्तमानकाल. त्वं पुनः पठ. त्वं शकटेन पठ.
त्वं शकटेन गृहं गच्छति.
Now, if the question is to be asked by the same boy, how will he ask the question? Tvam kena gruham gachyasi? Pata.
Tvam kena gruham gachyasi?
Uttaram kim bhavet? Tvam.
Tvam.
Shakatena.
Tvam shakatena gruham gachyasi.
Parantu, yaha gachyati, yaha purushaha gachyati, अयं किं वदति, अयं किं वदति? यः गच्छति, अयं पुरुषः किं वदति? अहं, वाट् ईस् ही सेयिङ्ग् फार् हिम्सेल्फ्? अहं, पुनः पठ. अहं सी वाट् इस् द मेन् इस् सेयिङ्ग्, हू इस् गोयिङ्ग्.
अहं शकटेन गृहं
गच्छामि
गच्छामि
हा यथा इदानीम् अलेख्या पठति तर्हि अलेख्या किं वदसि वदति अहं पठामि खलु अहं गच्छामि अहं क्रीडामि अहं लिखामि रैट् दट् वे इदानीं द्वौ गच्छतौ टु आफ् देम् आर् गोयिङ्ग् नौ दीस् टु फार् देम्सेल्स् वाट् दे आर् सेयिङ्ग् वि टु आवाम् आवां शकटेन गृहं गच्छावः पठ आवां शकटेन
आवाम् आवां शकटेन गृहं गच्छावः
शकटेन गृहं गच्छावः सो दिस् इस् वाट् दे आर् सेयिङ्ग् फार् देम्सेल्स् बट् द वन् हू इस् सीङ्ग् दिस् एक्षन् दस् बालः सः किम् अयं किं वदति अयं किं वदति युवां देट् इस् यू टु बिकास् ही इस् नाट् ट्रावेलिङ्ग् रैट् यू टु तर्हि युवां शकटेन गृहं गच्छथः पठ युवां
युवां केन गृहं गच्छतः
गच्छथः थ महाप्राण
गच्छथः
आम् अत्र पश्य त्वं किमस्ति गच्छति युवां देट् इस् यू टु युवां गच्छथः एण्ड् यू आल् मेनी बहुवचने यूयं गच्छथ अवगति वा अवगतवती वा फोर् सिङ्ग् एकवचनं त्वं गच्छसि यथा त्वं पठसि बट् यू टु सपोज् यू एण्ड् युर् मदर् बोत् आफ् देम् आर् गोयिङ्ग् देन् वाट् वाट् ऐ विल् से युवां गच्छथः गोयिङ्ग् देन् ऐ वाट् ऐ विल् से यूयं गच्छथ तर्हि वाक्यानि पठ पुनः त्वं गच्छसि पठ
त्वं गच्छसि
युवां
गच्छथः यूयं गच्छथ
आम् इदानीम् अग्रे पुनः सरेम तर्हि आवां सो दिस् वाक्यम् उचितमस्ति खलु वाक्यम् आवां देट् इस् बी टु शकटेन गृहं गच्छावः आवां गच्छावः आवाम् इत्युक्ते बी टु तर्हि कुत्र अस्ति आवां द्विवचने उत्तमपुरुषे अहं गच्छामि ऐ ओन्लि ऐ गो अहं गच्छामि आवां बी टु ऐ मैसेल्फ् एण्ड् सम्बडि एल्स् आवां गच्छावः वयं वि आल् इन् वि ऐ एम् आल्सो इन्क्लूडेड् ओके वयं गच्छामः तर्हि पठतु वाक्यानि त्रीणि वाक्यानि
अयम्
अहम् 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 अहं गच्छामि
अहं गच्छामि आवाम् आवां गच्छ
गच्छावः गच्छावः
गच्छावः
वयं
वयं गच्छ
गच्छामः वयं गच्छामः पुनः एकवारं वयं गच्छामः
वयं गच्छावः
गच्छामः
गच्छावः
न न व न अत्र मह गच्छामः
गच्छामः
उत्तमम् इतोपि एकं क्रियापदमस्ति तरति तरति इत्युक्ते स्विमिङ्ग् समडि इस् स्विमिङ्ग् नौ अत्र अयम् इस् समडि हूम् यू केन् सी यु विल् से अयं गच्छति अयं तरति खलु बट् समडि हूम् यु आर् नाट् एबल् टु सी एण्ड् अबौट् हूम् यु आर् डिस्कसिङ्ग् आर् टाकिङ्ग् वाट् यु विल् से देर् इस् सम् गुड् स्विमर् हियर् ओके सो वाट् ऐ विल् से सः तरति इस् नाट् इन् फ्रण्ट् आफ् मी परोक्ष तर्हि वाक्यानि पठतु सः तरति
सः
तौ तरतः
तौ
ते तरन्ति
ते तरन्ति
मध्यमपुरुषे त्वं तरसि
त्वं तरसि
युवां तरथः
युवां तरथः यूयं
तरथः पुनः एकवारं यूयं तरथ
यूयं तरथ
अहं तरामि
अहं तरामि
आवां तरावः
आवां तरावः
वयं तरामः
वयं तरामः
इदं लेट् अस् गो बेक् टु अवर् क्रियापदं तर्हि किं वदति इमौ द्वौ इमौ द्वौ किं वदतः मै क्वशन् इस् करेक्ट् रैट् इमौ द्वौ दीस् टु किं वाट् आर् दे सेम् वदतः वदति एकवचने द्विवचने किं भवति वदति वदतः वदन्ति खलु तर्हि इमौ द्वौ दीस् टु वाट् आर् दे सेङ्ग् किं वदतः तर्हि उत्तरं किं वाट् आर् दे सेङ्ग् आवां शकटेन
आवां शकटेन
गृहं
गृहं
गच्छावः
गृहं गच्छावः
प्रश्नः युवां केन गृहं गच्छतः
युवां केन गृहं गच्छतः
वै युवां वै दे आर् सीङ्ग् युवां बिकास् दिस् बाय् इस् सीङ्ग् दीस् टु पीपल् रैट् सो ही इस् सीङ्ग् देम् एण्ड् देर्फोर् ही इस् यूसिङ्ग् मध्यं पुरुष त्वं युवां यूयं खलु जस्ट् लुक् हियर् अगेन् सी त्वं सो ओन्ली वन् पर्सन् इस् गोयिङ्ग् वाट् द बाय् विल् से बाला किं वदति त्वं गच्छसि बट् टु आफ् देम् आर् गोयिङ्ग् सो वाट् हिल् से युवां गच्छथः सो तस्य वाक्यं पश्यतु युवां शकटेन गृहं गच्छतः वाक्यमुचितं खलु द्विवचनमस्ति गच्छथः किमर्थम् अत्र युवाम् अस्ति यदि त्वमस्ति तर्हि गच्छति युवमस्ति अतः गच्छ थः अवगतं वा बिकास् इट् इस् युवां तर्हि प्रश्नः किं युवां केन गृहं गच्छतः प्रश्नं पठ
युवां केन गृहं गच्छतः
उत्तरं किं वाट् इस् आन्सर् युवां शकटेन
युवां शकटेन गृहं गच्छतः
महाप्राण गच्छथः वदतु गच्छथः
गच्छथः
इवन छ पश्यतु च अल्पप्राण छ महाप्राण खलु छ इस् आल्सो महाप्राण थ इस् आल्सो महाप्राण तर्हि गच्छथः
गच्छथः
अग्रे इदानीं बहुवचनं तर्हि चित्रं पश्यतु सर्वे इमे खलु अयम् इमौ इमे इमे जनाः गच्छन्ति खलु दे आर् गोयिङ्ग् इमे जनाः गच्छन्ति वाट् आर् दे देम्सेल् सिङ्ग् वाट् आर् दे सिङ्ग् दोस् हु आर् गोयिङ्ग् वाट् आर् दे सिङ्ग् वयं वि आल् रैट् वयं शकटेन गृहं गच्छामः पठतु वयं शकटेन वयं शकटेन
वयं शकटेन गृहं गच्छामः
वै महा नौ किमर्थं महा बहुवचनं खलु वन्स् अगेन् अल् शो यु पश्यतु अत्र महा खलु दर् इस् महा इन् सी दिस् बहुवचने द्विवचनं वः द्विवचने किमस्ति वः इदानीं बहुवचने महा गच्छामः वयं गच्छामः वयं तरामः वयं लिखामः किं शेषं मूल वाक्यानि वयं जस्ट् यूसिङ्ग् वयम् इतोपि वाक्यानि वद किमपि क्रियापदं चिनोतु यु हाव् द बालदर्शनपुस्तकम् इन् फ्रण्ट् आफ् युर् चूस् एनी क्रियापदं से वयं
वयं क्रीडा
क्रीडामः इतोपि
वयं लिखामः
लिखामः ख महाप्राण अलिख्य पे अटेन्शन् द महाप्राण लिखावः
वयं लिखावः
इतोपि वयं
गायामः वयं
गायामः
वयं गायामः
खलु लता पुष्यति खलु लता पुष्यति खलु तर्हि वयं पुष्यामः
वयं पुष्यामः वयं गमिष्यामः
वयं गमिष्यामः बट् दट् इस् भविष्यकाल खलु वाक्यम् उचितं बट् वि विल् गो रैट् नौ वि आर् नाट् गोयिङ्ग् इफ् यु वाण्ट् टु से वि आर् गोयिङ्ग् रैट् नौ यु विल् से वयं गच्छामः वयं गमिष्यामः वि विल् गो वि आल् विल् गो उत्तमं अत्र तर्हि पश्यतु एकवारं पुनः अहं शकटेन गृहं गच्छामि खलु अहं शकटेन गृहं गच्छामि आवां विटु वयं आवां शकटेन गृहं गच्छाव अत्र वयं शकटेन गृहं गच्छामः इतोपि किञ्चित् अभ्यासम् अहं नौकया नदीं तरामि पठ अहं नौकया नदीं तरामि
नौकयां तरीं
न न न नौकया
नौकया
नदीं
नदीं
तरामि
तरामि
अहं तरामि खलु
अहं तरामि
अहम् इट् हेस् टु बि तरामि अहं तरामि अहं लिखामि नौकया केन कया तरति अयं पुरुषः कया तरति नौकया वाट् इस् द माध्यम वाट् इस् द साधन नौकया तर्हि नौका नौकया तर्हि वदतु पुनः वाक्यं वदतु अयम् अहं नौकया
अयं नौकया
अहं न अयं न अहम्
अहं
नौकया
अहं
नौकया नदीं
नदीं
तरामि
तरामि
तर्हि अहं तरामि कया नौकया नौकया तरामि इतोपि नदीं फोर् नदीं वाट् केन् बि द क्वशन् वि हेव् डन् दिस् लास्ट् वर्गः नदी कीदृशपदं स्त्रीलिङ्गपदं खलु नदी नद्यौ नद्यः तर्हि ऐ जस्ट् शो यु दिस् वन्स् अगेन् एकनिमिष अत्र अस्ति खलु क्रियापदानि कुत्र भवन्ति सो नौका स्त्रीलिङ्गपदमस्ति खलु तर्हि सीता सीते सीताः प्रथमा सीतां सीते सीताः द्वितीया सीतया सीताभ्यां सीताभिः तृतीया सो तृतीया विभक्ति इस् सीतया फ़ सीता इति सीतया फ़ नौका किं भवेत् नौकया खलु नौका नौकया माला मालया वदतु मापिका
मापिका
मापिकया
मापिकया
एतादृशं लता लतया
लता लतया
सो वाट् वि वर् लुकिङ्ग् एट् नौ तर्हि अत्र वि हेव् डन् द द्वितीयविभक्ति फस्ट् प्रश्नः आल्सो रैट् अत्र
हा तर्हि पश्यतु अत्र का के काः प्रथमा से वस्त्रीलिङ्ग
के काः प्रथमा
काम के काः द्वितीया
के काः द्वितीया
कया काभ्यां काभिः द्वितीया
कयां काभ्यां कामिः द्वितीया
इट्स् नाट् कयाम् इट्स् कया कया काभ्यां कया
कया काभ्यां
काभिः
काभिः
तृतीया
तृतीया
सो दिस् कया विच् यु आर् सीन् हियर् दिस् कया इस् फार् वाट् स्त्रीलिङ्ग तृतीया विभक्ति एकवचनं दट् इस् वाट् वि आर् डूङ्ग् हियर् इन् द षष्ठ पाठ दिस् कया फ्रोम् वेर् दिस् वर्ड् कया हेस् कम् त्वं कया नदीं तरसि वाट् इस् द साधना नौका तर्हि अहं नौकया नदीं तरामि उत्तरम् ओके तर्हि द बालः हू इस् सीन् अयं बालः इमं पश्यति तर्हि बालः किं वदति त्वं नौकया नदीं तरसि पठतु
त्वं नौकया नदीं तरसि
तर्हि पूर्वं कम् इति काम् इति प्रश्नः आसीत् खलु नदी स्त्रीलिङ्गपदं तर्हि त्वं कां तरसि इति प्रश्नः इफ् यु सी वाट् आर् यु स्विमिङ्ग् इन् वाट् आर् यु स्विमिङ्ग् नदीं खलु त्वं कां तरसि नदीं तरसि वदतु त्वं त्वं नदीं तरसि वाट् आर् यु स्विमिङ्ग् इन् नदीं तर्हि तत्र कां भवति परन्तु अत्र नौकया वाट् इस् द साधनम् हियर् इट् वास् वाट् हियर् इट् इस् हौ वाट् इस् द साधनं तर्हि त्वं कया इदानीम् इति कया कां नदीं कया नौकया टेबल् वन्स् काम् इत्युक्ते नदीं तरति कया नौकया पश्यतु अत्र कां तरति नदीं तरति हियर् काम् दिस् इस् काम् रैट् द्वितीयविभक्ति एकवचनं काम् एण्ड् कया नौकया सो एक्साक्ट्लि दट् इस् वाट् ऐ शो दट् इन्फेक्ट् ऐ पुट् दिस् हियर् सो अत्र अपि अस्ति पश्यतु अत्र पश्यतु स्त्रीलिङ्गे नौका अस्ति खलु तर्हि का अस्ति नौका अस्ति खलु कां तरति कां तरति नदीं खलु कां तरति नदीं तरति रैट् द क्वशन् इस् क्लियर् का अस्ति नदी अस्ति कां तरति नदीं
तरति नदीं तरति
परन्तु कया तरति वाट् इस् द साधना वाट् इस् द माध्यम् कया तरति कया नदीं तरति इन् फेक्ट् द क्वशन् इस् कया नदीं तरति हौ आर् यु गोयिङ्ग् इन् द रिवर् आर् क्रासिङ्ग् द रिवर् नौकया नौकया नदीं तरति खलु नदीं तरति सरि वन्स् अगेन् अहं नौकया नदीं तरामि वाक्यम् अहं
नौकया
नदीं तरामि नौ अस्तु इदानीं विल् कीप् दिस् वाक्यम् एस् इट् इस् रीड् द वाक्यम् आफ् द बालः बालस्य वाक्यं किमस्ति त्वं बिकास् ही सीङ्ग् हिम् रैट् त्वं नौकया नदीं तरसि से त्वं से त्वं
त्वं
नौकया
नौकया
नदीं देयर्स् अ डाट् हियर् नदीं तरसि
तरसि
प्रश्नः किं भवेत् रीड् द क्वशन् नौ त्वं
त्वं
कया कया नदीं तरसि
कयां नदीं तरसि
न न नॉट कया वेयर देयर इज डॉट हियर इट्स कया
कया
नदीं तरसि
तरां
नदी न न न न सी अलिक्या त्वं
त्वं
कया
कया
नदीं
नदीं
तरसि
तरसि
so now look at my vakya just listen to me tvam kam taras kana tvam kam tarasi it is the question tvam kam tarasi uttaram tvam nadi tarasi kam parantu tvam kaya nadim tarasi tvam naukaya nadim tarasi avagatam va this kaya is the question for naukaya and kam is the question for nadim but right now that abhyasa we are, I'm not done here because we did it last time right kam kam ke kaha khulu spashitu atra prashne trilingi kim asti prashnah kam ke kaha khulu kam idanim now again instead of one two of them are going in the boat hello so what they will say avam naukaya nadim taravah say avam
avam
naukaya
naukaya
nadim
nadim
taravah
taravah
why taravah can you tell why taravah why earlier what it was aham tarami asit khalu look here aham tarami now avam taravah
avam taravah
तर्हि आवां नौकया नदीं तरावः से आवां नौकया
नौकया
नदीं तरावः
नदीं तरावः
नौ दिस् बाय् इस् लुकिङ्ग् एट् देम् रैट् सो हि इस् सेयिङ्ग् सम् सेण्टेन्सेस् वट् आर् दे युवां देट् इस् यु टु रैट् युवां नौकया
naukayam
no no there is no yam here naukaya
naukaya
ha nadim
nadim
tarathah
tarathah
hello yuvam tarathah
yuvam tarathah
now what prashna kim bhavet yuvam kaya nadim tarathah
yuvam
कया नदीं तरथः
कया नदीं तरथः
उत्तरं युवां नौकया
युवां नर्कयां
नो नो वै यु सिङ्ग् यां हियर् नौकया
नौकया
नाट् यां नौकया नदीं तरथः
नौकया नदीं तरतः
थः
तरतः
इदानीं बहुवचने प्रथमं वाक्यं किम् आसीत् अहं तरामि खलु अहं नौकया नदीं तरामि द्वितीयं वाक्यम् आवां नौकया नदीं तरावः तृतीयवाक्यं वयं नौसीदवाक्यं वयं
वयं नौकया नदीं तरामः
तरामः उत्तमम् तर्हि वयं नौकया नदीं तरामः ओके इदानीं बालः किं वदति वाक्यं पठति वा
What is the boy saying? Can you see, read? Yuyam.
Yuyam.
Hmm.
Naukaya. Naukaya. Nadim. Taratha.
Taratha. Taratha.
Taratha.
Huh. Kimartam taratha. I'll send the table then. Yuyam. Taratha. Pashyatu.
Yuyam.
Tachatha. Khalu. Yuyam. Taratha.
Yuyam. Taratha.
Yuyam gachata. Can you say some more kriyapadam and use yuyam for you all? Bhavachane.
Yuyam.
Yuyam nayatha. Itopi.
Nayatha.
Yuyam pashyatha.
Yuyam pashyatha.
Yuyam lasatha.
Yuyam lasatha.
Avagatam va? For you all. In that you yourself are not included. Huh? In vayam, you are included. Yourself. But in yuyam, it is you all. And vayam means we all. In that I am also included. Tari atra bahu vachane kim asti vakyam punha ekvaram patha. Vayam naukaya.
Vayam naukaya. Nadim
taramaha. Because this sentence is said by the people who are going themselves, right? So vayam taramaha. But this boy is talking about them, and therefore yuyam naukaya nadim taratha. Ek punah ek varam patha. Patha. Yuyam.
Yuyam
naukaya.
Yuyam naukaya nadim taratha.
No, there is no visarga here. Alekya. Bahu vachane visarga nasti. Dvi vachane visarga asti. Kalu. And the prashna. Can you see the prashna now? Yuyam kaya nadim taratha. Say the vakyani. Yuyam.
Yuyam.
Prashna. Kaya.
Yuyam kayam.
There is no yam here, Alikya. There is no dot here. Kaya.
Yuyam kaya. Nadim. Taratha.
Uttama. Okay. Do you remember this abhyasa? We had done it before. Can you just say the sentences? Ashwaha. Mahila.
Ashwaha Mahilam Vahati.
Tari prashna kim bhavet? Ashwaha Kam Vahati.
Ashwaha Kam Vahati.
Ashwaha Mahilam Vahati.
Ashwaha Mahilam Vahati.
Instead of Mahila, if you say Bala, Tari Ashwaha Kam Vahati. Ashwaha Balam Vahati. Say the vakyam. Ashwaha.
Ashwaha.
Balam vahati.
Ashwaha balam vadati.
Vahati, vahati is taking, na? Vahati is taking them, na? Carrying them. Vahati.
Vahati.
Idhari, ashwau. Two horses. And they are taking two people. Sari, janaha, janaha, janaha. Ashwau, janau, vahataha.
Ashwaha, janau, vahataha.
Ashwahanna Ashwau Khalu Ashwau.
Ashwau Janau Vahataha.
Prashna Kim Bhavet? Ashwau Kau Vahataha.
Ashwau Kau Vahataha.
Vahataha. Ashwau Janau. Anyatha Ashwau Balau Vahataha. You can say Balau also. Two boys. Okay. Bahuvachane. Ashwaha.
Ashwaha.
Janaa.
Vahanti.
anyatha if you say all boys then ashvaha balan
balan vamanti
vahanti
vahanti
tari prashna kim bhavet ashvaha kan vahanti se
ashvaha kan vahanti
ashvaha balan
balan janan
vahanti अश्वः जनान् वहन्ति
अश्वः जनान् वहन्ति
पश्यतु अश्वः इस् अ पुल्लिङ्गः खलु तर्हि कं वहति बालं वहति कौ वहति बालौ कौ वहतः बालौ वहतः कान् वहन्ति बालान् वहन्ति खलु कं कौ कान् बिकास् इट् इस् अश्वः पुल्लिङ्गः अस्ति परन्तु नौका नौका इस् अ स्त्रीलिङ्ग् तर्हि नौका नयति खलु नौका कां नयति नौका बालां नयति नौका महिलां नयति नौका के नयति इमेजिन् ओन्ली वन् बोट् ओन्ली वन् बोट् इस् टेकिङ्ग् टु गर्ल्स् तर्हि नौका के वहति नौका बाले वहति खलु नौका नौका ओन्लि वन् बोट् अगेन् नौका काः नयति नौका बालाः नयति
नौका
बालाः काः बालाः नयति शकटम् इस् अ नपुंसकलिङ्गपदं शकटं शकटे शकटानि शकटं काट् खलु तर्हि शकटं शकटं बालः केन गच्छति बालः शकटेन गच्छति केन खलु केन बालः कं पश्यति बालः किं पश्यति बालः शकटं पश्यति अत्र दिस्मील् वर्णे ब्लू किं पश्यति शकटं पश्यति कानि पश्यति वन् बाय् सीङ्ग् वाट् मेनि कार्ड्स् सपोज़् वन् बाय् सीङ्ग् मेनि कार्ड्स् वाट् वुड् बि द वाक्यं बालः शकटानि पश्यति खलु ओन्ली वन् सीङ्ग् ओके सो विल् कम् बेक् टु दिस् Okay, so in fact we are almost covering most of the shastha patha. Okay, abhyasa we'll do in the next class, but today we'll cover the topics in the shastha patha. Okay, read this now. Naraha shakatena bharam vahati. Chitram drushta vadato alekya alekya
नरः शकट
शकटेन
शकटेन
भारं
भारं वहति
नरः नरः वहति खलु एकवचने अस्ति खलु नरः नरौ नराः नरः वहति ओन्लि वन् मेन् इस् टेकिङ्ग् न वाट् इस् द साधना हौ हि इस् टेकिङ्ग् द भार with the bullock cart because of the bullock cart he is able to take so the madhyam is shakatah shakatam hello narah shakatena bharam vahati prashna kim bhavet narah kena bharam vahati say the question
narah kena bharam vahati
bha mahaprana bharam vahati
भारं वहति
नरः शकटेन भारं वहति नौ केन् ऐ मेक् सम् चेञ्ज् यर् इफ् ऐ से इन्स्ट्रो वन् मेन् देर् आर् टु पीपल् हु आर् टेकिङ्ग् द भार वित् अ शकटं तर्हि नरः नरौ खलु नरौ शकटेन भारं वहतः खलु केन सिद्धवाक्यं सिद्धवाक्यं नरौ
नरौ
शकटेन
नरौ शकटेन भारं भारं
वहतः 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 यदि बहवः जनाः गच्छन्ति इफ मेनी पीपल आर टेकिंग द भार नरः नरौ नराः तर्हि नराः शकटेन
शकटेन
भारं वहन्ति बहुवचनं खलु वहन्ति
वहन्ति
पुनः वदतु वाक्यं नराः
नराः
शकटेन
शकटेन शकटेन भारं
भारं भारं
भारं
वहन्ति
वहन्ति
प्रश्नः इदानीं यदि बहुवचनस्य प्रश्नः किं भवेत् नराः केन भारं वहन्ति इति प्रश्नः बहुवचनं वदतु नराः
नराः केन भारं वहन्ति
भारं
भारं वहन्ति
इफ देयर आर टू पीपल व्हाट विल बी द क्वेश्चन नरौ केन भारं वहतः इति प्रश्नः
वदतु
नरौ नरौ फोर् द्विवचनं फोर्टि टु पीपल् अगो नरौ
नरौ केन
भारं
केन भारं
वहतः
वहतः
अग्रे हरिः पादाभ्यां गृहं गच्छति पठतु हरिः
हरिः
पादाभ्यां
पादाभ्यां
गृहं गच्छति
गृहं गच्छति
प्रश्नः हरिः काभ्यां गृहं गच्छति
हरिः काभ्यां गृहं गच्छति
काभ्यां
काभ्यां
हरिः काभ्यां गृहं गच्छति हरिः पादाभ्यां गृहं गच्छति काभ्यां मीन्स् हि इस् गोयिङ्ग् वित् हिस् टु लेग्स् रैट् अतः द्विवचनम् आवश्यकं द्विवचनं काभ्यां कुत्र आगच्छतः कुतः आगतः अशोयु अत्र पश्यतु पादः अस्ति खलु फीट् पादः लेग्स् तर्हि पुल्लिङ्ग् अस्ति तर्हि केन इफ् समबडी इस् यूसिङ्ग् ओन्ली वन् लेग् देन् यु केन् से केन बट् देर् आर् टु लेग्स् नार्मलि वि आल् हेव् टु लेग्स् रैट् तर्हि काभ्यां हरिः काभ्यां गृहं गच्छति वाट् इस् द साधनं साधनम् इस् इस् टु लेग्स् टु गो रैट् अतः काभ्यां गृहं गच्छति पादाभ्यां जस्ट् एतद् वाक्यं वन्स् अगेन् हरिः पादाभ्यां
हरि पादाभ्यां
गृहं
गृहं गच्छति
ओके सो दिस् इस् द लास्ट् पिक्चर् शुड् बि कम्प्लीट् दिस् पिक्चर् अनदर् टु मिनिट्स् अस्तु ओके तर्हि शकटः नाट् शकटः ऐ एम् सोरि शकटं न पुंसर्लिङ्गे अयं शक इट् शुड् नाट् बि ऐ वाट् शुड् इदं शकटं हलो इदं पुष्पम् इदं कमलम् इदं शकटं सो ऐ एम् आल्सो एबल् टु सी यु आर् आल्सो एबल् टु सी शकटं इदं चक्रं खलु किं चिदस् चक्रं चक्रं हमी चक्रं हमी वील्स् आर् वेर् चक्रं चक्रे चक्राणि खलु तर्हि इदं चक्रम् इदम् इमे खलु इमे चक्रे वदतु द अदर् वील् इस् आन् द अदर् सैड् सो यु आर् ओन्लि सी एबल् टु सी लिटल् आफ़् इट् रैट् सो इमे बट् देर् आर् टु वील्स् इमे चक्रे शकटमस्ति शाकटिकः अस्ति भू शाकटिकः काट्मेन् शकटं काट् शाकटिकः काट्मेन् तर्हि शाकटिकः तर्हि अयं शाकटिकः, द वन् हू सिटिङ्ग् हियर् आन् टाप्, अयं कः? अयं से अयं शाकटिकः,
अयं शाकटिकः.
पुनः से वन्स् अगेन् अयं शाकटिकः,
अयं शाकटिकः.
आम्, तस्य हस्ते शाकटिक, अस्य अस्य हस्ते किमस्ति? विप् अस्ति खलु, विप्, कषा. विप् इत्युक्ते कषा, वदतु. अस्य हस्ते से अस्य हस्ते
अस्य हस्ते
कषा अस्ति, किमस्ति?
कषा अस्ति,
कषा. आम्, तर्हि अस्य वाक्यं न, शाकटिकः कषया वृषभौ ताडयति. शाकटिकः कषया
कषया वृषभौ ताडयति.
यथा नौका स्त्रीलिङ्गपदमस्ति तथैव कषा अपि स्त्रीलिङ्गपदं. नौका तृतीयविभक्ति एकवचनं किं? नौकया. वदतु, नौका नौकया से
नौका नौकया
नौकया. मापिका मापिकया
वापिकया
मापिका मापिकया
मापिका मापिकया.
लता लतया
लता लतया.
रमा रमया
रमा रमया.
नौका नौकया
नौका नौकया.
कषा कषया
कषा कषया.
आम्, सो हियर् शाकटिकः कषया वृषभौ ताडयति, खलु? वृषभौ, वै द्विवचनं वृषभौ? बिकास् देर् आर् टु बुल्स्, वृषभः वृषभौ वृषभाः. तर्हि वृषभौ ताडयति, कः ताडयति? शाकटिकः ताडयति. शाकटिकः कं कौ कान्, खलु? कौ ताडयति? शाकटिकः वृषभौ ताडयति. शाकटिकः कया वृषभौ ताडयति? कया, उत्तरं कया मीन्स् वाट् इस् द साधना, वाट् इस् द माध्यम, हौ इस् इट् बीटिङ्ग्. शाकटिकः कषया से
शाकटिकया कषया
न न न शाकटिकः
शाकटिकः
कषया
कषया
वृषभौ ताडयति
वृषभौ ताडयति.
प्रश्नः किमस्ति? शाकटिकः कया वृषभौ ताडयति? से शाकटिकः
शाकटिकः
कया
कया
वृषभौ
वृषभौ
ताडयति
ताडयति
कया. सो वाट् इस् आन्सर् फोर् कया? कया इत्युक्तौ कषया, खलु? कया कषया
कषया.
कया कषया ताडयति. कौ ताडयति? वृषभौ. कौ, वाट् इस् आन्सर् फोर् कौ? वृषभौ. कौ ताडयति? वृषभौ ताडयति. अवगतं वा?
आम्.
So we'll stop here. So time up, we'll stop here. Okay, agrimavarge ayam ayam paatha purnam kurma agrimavarge. Shanti mantram vada.
Om purnamada purnamidam purnat purnamudachyate purnasya purnamadaya purnamevavasishyate. ॐ शान्ति शान्ति शान्तिः.
उत्तमं, केवलं यत्र दीर्घ अस्ति खलु पूर्णात्, पश्यतु पू दीर्घ अस्ति द्विमात्रकाल्, देन् न न एतदपि द्विमात्रकाल्. पूर्ण अत्र पू पू दिस् दीर्घ उकार, दिस् आल्सो द्विमात्रकाल्. सो ऐल् जस्ट् से लिसन् टु मी वन्स्. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते, ते अगेन् द्विमात्रकार. पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. अवगतं वा? So you have to pay attention to the dirgha. Wherever is dirgha, you should give two times the time for uchcharan. Purnamadaya ma dirgha da dirgha ya. That's ek mataka. Avagatam va? Pay attention to the matra kal also. Astu tri agrim varge punar melanaya
and
stop the recording just a minute.